अथ कीलकम्।
ओम् अस्य श्री कीलकमन्त्रस्य शिवऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वती देवता श्रीजगदम्बा प्रीत्यर्थम् सप्तशती पाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै। मार्कण्डेय उवाच। ॐ विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्। सोऽपि क्षेममवाप्नोति सततम् जाप्य तत्परः सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि। एतेन स्तुवताम् देवि स्तोत्रमात्रेण सिद्ध्यति। न मन्त्रोणौषधम् तत्र न किञ्चिदपि विद्यते। विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्। समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमाम् हरः। कृत्वा निमन्त्रयामास सर्वमेवमिदम् शुभम्। स्तोत्रम् वैचण्डिकायास्तु तच्च गुप्तम् चकारसः। समाप्तिर्न च पुण्यस्य ताम् यथावन्नियन्त्रणाम्। सोऽपि क्षेममवाप्नोति सर्वमेवम् न संशयः। कृष्णायाम् वा चतुर्दश्यामष्टम्याम् वा समाहितः। ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति। इत्थम् रूपेण कीलेन महादेवेन कीलितम्। यो निष्कीलाम् विधायैनाम् नित्यम् जपति संस्फुटम्। ससिद्धः सगणः सोऽपि गन्धर्वो जायते नरः। न चैवाप्यरतस्तस्य भयम् क्वापीह जायते। नापमृत्युवशम् याति मृतो मोक्षमवाप्नुयात्। ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति। ततो ज्ञात्वैव सम्पन्नमिदम् प्रारभ्यते बुधैः। सौभाग्यादि च यत्किञ्चित् दृश्यते ललनाजने तत्सर्वम् तत्प्रसादेन तेन जाप्यमिदम् शुभम्। शनैस्तु जाप्यमानेऽस्मिन् स्तोत्रे सम्पतिरुच्चकैः। भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यम् यत्प्रसादेन सौभाग्यारोग्यसम्पदः। शत्रुहाणिः परो मोक्षस्तूयते सा न किम् जनैः। ॐ इति देव्याः कीलकस्तोत्रम् सम्पूर्णम्।